ब्रह्मण्यदेवाय गोब्राह्मणहिताय च जगद्हिताय कृष्णाय गोविन्दाय नमो नमः। अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् हंसनारायणं वन्दे श्रीधरं भक्तवत्सलम्।